इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। अथ वार्ताः। अद्य द्वादशः अन्ताराष्ट्रिय योग दिवसः। अस्य वर्षस्य विषयः स्वस्थवृद्धावस्थायै योगः इति विषयेण विश्वस्मिन् आचर्यते अयं दिवसः। मुख्य कार्यक्रमः पश्चिमबंगालस्य कोलकाता नगरे ऐतिहासिके रेड रोड स्थले आयोजते। तत्र प्रधानमन्त्री कॉमन योग प्रोटोकॉल इति सामान्य योगाभ्यासे अस्य अपि राष्ट्रस्य नेतृत्वं विदधाति। मध्यप्रदेशस्य जबलपुर नगरे अद्य राज्यस्तरीय अन्ताराष्ट्रिय योग दिवस कार्यक्रमे राष्ट्रपतिः मुख्य अतिथित्वेन सहभागित्वं करिष्यति। सदर स्थिते गैरिसन ग्राउण्ड नाम्ना प्रांगणे कार्यक्रमः प्रातः 7:30 आरप्यते। अन्ताराष्ट्रिय योग दिवसम् आलक्ष्य अनेकेषु देशेषु योगाभ्यासस्य विशेषः उत्साहः दृष्टः। कनाडा देशस्य टोरंटो नगरे ओंटारियो विधानसभायाः ऐतिहासिक प्रांगणे विशालं योगसत्रम् आयोजितम्। ब्राजील देशे प्रसिद्धे फोस डू इगुआकू जलप्रपाते अपि योगसत्रम् आयोजितम्। डेनमार्क देशस्य आरहुस नगरे योग दिवसः समारोहः सोत्साहं सम्पन्नः। अद्य नवदिल्ल्यां भारतमण्डपम् इत्यत्र सामाजिक न्याय अधिकारिता मन्त्रालयेन विशेषः योगदिवस समारोहः आयोजितः। अस्मिन् कार्यक्रमे प्रायः 15,000 वरिष्ठाः नागरिकाः सहभागित्वं कुर्वन्ति। राष्ट्रव्यापि समारोहाणां भागत्वेन आयोजितः अयम् उत्सवः स्वस्थवृद्धावस्थायै योगः इति राष्ट्रिय विषयस्य अनुरूपम् अस्ति। प्रधानमन्त्री नरेन्द्र मोदी अद्य कोलकातायां आईएनएस दुनागिरी इत्यस्य आईएनएस संशोधकस्य तथा आईएनएस अग्रय इत्यस्य 9 सैनिक पोतानां अनावरणं करिष्यति। एतेषु पोतेषु 75%+ स्वदेशी सामग्रीणाम् उपयोगः कृतः। ओडिशा राज्यस्य मयूरभंज जनपदे रायरंगपुर क्षेत्रे आयोजितायां जनसभायां प्रधानमन्त्री अवदत् यत् जनजातीय समुदायाः भारतस्य विकास यात्रायाः सक्रिय सहभागिनः भवन्ति। तेन राज्यस्य प्रगतिः अपि प्रशंसिता तथा प्रायः 47,000 कोटि रूप्यकाणां विकास परियोजनानां उद्घाटनं शिलान्यासश्च कृतः। नीट यूजी पुनर्परीक्षा अद्य आयोज्यते। परीक्षा केन्द्रेषु कठोर सुरक्षा व्यवस्था कृता। राष्ट्रिय पात्रता सह प्रवेश परीक्षा नीट यूजी इत्यस्य परीक्षा पुनर्परीक्षा अद्य आयोज्यते। एषा परीक्षा देशस्य 55 नगरेषु विदेशस्य 14 नगरेषु च भवति। केन्द्रीय मंत्री अश्विनी वैष्णवः अद्य राजस्थान राज्यस्य यात्रायाम् अस्ति। सः अनेकाः रेल परियोजनाः उद्घाटयिष्यति तथा समर्पयिष्यति। केन्द्रीय जल मार्ग मंत्री सर्वानन्द सोनोवालः अद्य अवदत् यत् भारत ध्वजांकिताः 3 तैलवाहकाः होर्मुस जलसंधिं सफलतया अतिक्रम्य भारतम् आगच्छन्ति। तेषु 94 भारतीय नाविकाः अपि सन्ति। फीफा विश्व चषके नीदरलैंड्स दलेन स्वीडन दलं 5-1 इति अंकेन पराजितम्। ब्राजील दलेन हैती दलं 3-0 इति अंकेन च पराजितम्। क्रिकेट श्रृंखलायाः अन्तिम स्पर्धायां भारत ए तथा श्रीलंका ए दलयोः अद्य दम्बुल्ला नगरे सम्मुखीकरिष्यतः। स्पर्धा प्रातः 10 आरभ्यते। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकी इति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः रविवासरे मध्याह्ने 1:30 भविष्यति। भवन्तः सर्वेपि एतत् श्रोतुं प्रभवन्ति। अयं कार्यक्रमः अद्यैव प्रसार्यते। इति वार्ताः।